एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः गृहमन्त्रालयेन विधिविपरीतेषु कार्येषु कथं विदेशु भ्रष्टाचारेषु च मन्त्रालयस्य नेतृत्वस्य च क्वापि संलग्नता नास्तीति स्पष्टीकृतं वर्तते। त्रिभुवनान्तरराष्ट्रिय विमानस्थलाध्यगमन कार्यालयस्य घटनया सह मन्त्रालयं मन्त्रालयस्य नेतृत्वं च संयोज्य प्रसारितं समाचारं प्रतिक्रियां च प्रति गभीरं ध्यानम् आकृष्टमस्तीति विज्ञाप्य विशेष्य गाम्भीर्यं विचार्य सत्यस्यैव विषयवस्तुनः प्रसारणं प्रकाशनं च विधातुं गृहमन्त्रालयेन अनुरुद्धमस्ति। मन्त्रालयस्य सहसचिवेन छविरिजालेन ह्यः प्रकाशितायं विज्ञप्तौ अधिकार दुरुपयोगानुसन्धानायोगा जायमाने अनुसन्धानान्वेषण कार्ये मन्त्रालयस्य पूर्ण सहयोगो भवतीति उल्लिखितं वर्तते। पश्चात्तन समये त्रिभुवनान्तरराष्ट्रिय विमानस्थलस्य कार्यस्य विषये आयोगेन अनुसन्धानं विद्यमानम् अस्ति, त्यतः अनुसन्धानस्य पूरणस्य पश्चात् सत्यं प्रकाशयिष्यते इति विज्ञप्तौ उल्लिखितमस्ति। गृहमन्त्रालयेन देशे शान्तिं सुरक्षां सुशासनं च स्थापयितुं मन्त्रालयः क्रियाशीलो वर्तते इति ज्ञापितमस्ति। मन्त्रालयेन सर्वविधानाम् अनियमितानाम् अपराधानां च घटनासु शून्य सहनशीलतायाः नीतिम् अवलम्ब्य गृह प्रशासनं व्यवस्थापयितुं नीतिगतानां संस्थागतानां च सुधारस्य कार्याणि क्रियमाणानि सन्तीति ज्ञापितं वर्तते। संचार सूचना प्रविधि मन्त्रिणा पृथ्वी सुब्बा गुरूङ इत्यनेन सांजालिक सुरक्षा विधेयकं शीघ्रमेव संसदि प्रस्तुष्यते इति सूचितमस्ति। संचार सूचना प्रविधि मन्त्रालयेन गण्डकी प्रादेशिक संचारिका समूहेन च ह्य पोखरायां समायोजिते कार्यक्रमे संचार मन्त्री गुरूङ सांजालिका अपराधस्य नियन्त्रणाय सांजालिक सुरक्षा विधेयकं मन्त्रिपरिषदा स्वीकृतमस्तीति असूचयत। तदवसरे संचार मन्त्री गुरूङ संचार माध्यमैः श्रोतारः दर्शकाश्च संचार सूचना प्रविधे विकासेन आनीतानाम् अवसराणाम् समाह्वयस्य च विषयाः बोधनीयाः इति उदैरयत। संचार मन्त्री गुरूङ सर्वकारीय संचार माध्यमानाम् नूतन रूपेण विकासस्य योजनायाम् आत्मना कार्यम् विधीयमानम् अस्ति इति असूचयत। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड निगदति देशे प्रत्यक्ष निर्वाचित कार्यकारी राष्ट्रपतीय शासन प्रणाल्या आवश्यकता वर्तते। दलेन संचालितस्य जनतया सह माओवादी दलमिति मध्यपर्वतीय लोकमार्ग जागरणाभियानस्य अन्तर्गतं ह्य पोखरायाम् आयोजितायां सभायाम् अध्यक्ष प्रचण्ड कार्यकारी राष्ट्रपतये जनतां प्रशिक्षितां परिचालितां च विधातुमपि अभियानमिदं संचालितमस्तीति अवोचत। तदवसरे अध्यक्ष प्रचण्ड संविधानस्य निर्माणस्य समये आत्मना प्रत्यक्ष निर्वाचित कार्यकारिणः पक्षस्थितं सदपि विषयेऽस्मिन् स्थिरीभूय संस्थिते सति संविधान निर्माणस्य अभावस्य सम्भावनायाः दर्शनात् विमतिं प्रदर्श्य वर्तमान शासन प्रणाल्याः पक्षे आत्मना स्थितमिति अस्मरत। कार्यक्रमं माओवादी केन्द्रस्य वरिष्ठोपाध्यक्ष नारायणकाजी श्रेष्ठ महासचिव देव गुरूङ च सम्बोधितवन्तौ। नेपाली कांग्रेस दलस्य नेता डाक्टर शेखर कोइराला उच्च पदस्थ कर्मचारीणाम् कृते वर्षद्वयस्य अवकाशानन्तरकालिका निर्देशनावधौ स्थापनीयाः। विराटनगर विमानस्थले ह्य संचारकर्मीभिः भाषमाण नेता कोइराला सम्प्रति आसन्न पञ्चविंशतिः सचिवाः सांविधानिक निकायेषु वर्तन्ते इत्यतः उच्च पदस्थ कर्मचारीणाम् कृते एवं व्यवस्थायाः अभिधाने सति सर्वेऽपि निकायाः सेवा परिवर्तनस्य निकायाः भविष्यन्ति इति अवोचत। तदवसरे डाक्टर शेखर कोइराला हिन्दूराष्ट्रस्य राजतन्त्रस्य च विमर्शनापेक्षया देशे सुशासनस्य स्थापनं प्रति सर्वैः अग्रेसरैर्भाव्यमिति प्रत्यपादयत। नागढुङ्गा नौ विषय मार्ग ह्यस्तनात् दिवसात् प्रतिदिनं सात घण्टा चतुष्टयं पिधीयमानो वर्तते। नारायणगढ़ मुगलिङ मार्गायोजनया पूर्वखण्डेन ह्यस्तनात् दिवसादस्यैव ज्येष्ठमासस्य पञ्चविंशम् दिवसम् यावत् प्रातः सार्धदशवादनात् अपराह्नस्य त्रिवादनम् यावत् मार्गखण्डममुम् पिधाय मार्गविस्तारस्य कार्यम् विधीयमानमस्तीति ज्ञापितम् वर्तते। काष्ठमण्डपस्य प्रमुखजनपदाधिकारी ऋषिराम तिवारी काष्ठमण्डप धादिङ जनपदयो जनपद प्रशासनाभ्याम सह समन्वयं विधाय निर्णयोऽयं विहितोऽस्तीति अज्ञापयत्। प्रहरिणा अस्मिन् समये वैकल्पिक रूपेण धारके सीता पाइला मार्गम् टोखा छरे त्रिशूली गल्छी मार्गम् च प्रयोक्तुम् अनुरूद्धमस्ति। सप्तरी जनपदस्य राजगढ़ ग्रामपालिकायाः पञ्चमवडा क्षेत्रवर्तिनी मलेकपुरस्थाने ट्रैक्टर यानेन मोटरसाइकल यानस्य संघर्षणेन दुरापन्नायां दुर्घटनायां द्वौ जनौ मृतौस्त। दुर्घटनायां एको जनः गभीरेण आहतोऽस्ति। दुर्घटनायां मृतयो जनयो सम्प्रत्यपि सत्यापनं सम्भूतं नास्तीति सप्तरी जनपद प्रहरी कार्यालयेन ज्ञापितं वर्तते। आहतस्य जनस्य राजविराजवर्तिनी छिन्नमस्ता चिकित्सालये उपचारः जायमानोऽस्ति। पत्थरगाड़ा स्थानात राजविराज स्थानं प्रति प्रस्थितेन इष्टिकारूढवता ट्रैक्टर यानेन विपरीत दिशा आगच्छत मोटरसाइकल यानं संघटितं सद् दुर्घटना दुरापन्नेति सप्तरी जनपद प्रहरी कार्यालयस्य प्रहरी उपरीक्षकः ढकेन्द्र खतिवड़ा असूचयत्। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः नागरिकेषु सहज स्वास्थ्य सेवां प्रापयितुं राज्येन स्वास्थ्य क्षेत्रे निवेशनं वर्धनीयमिति बलं ददाति। मोरङ जनपदस्य धनपालथान ग्रामपालिकायाः तृतीयवडा क्षेत्रस्य शिवशक्ति माध्यमिक विद्यालये ह्य आयोजितं स्वास्थ्य शिविरं समुद्घाटयन् मन्त्री पौडेलः स्वास्थ्य क्षेत्रे दृष्टां विकृतिं समाप्य नागरिकेभ्यः सहजरूपेण स्वास्थ्य सेवायाः प्रदानाय स्वास्थ्य क्षेत्रे सुधारस्य आवश्यकता अस्तीति प्रावोचत्। लुम्बिनी प्रदेशसभया आगामिनः आर्थिक वर्षस्य वार्षिक नीति कार्यक्रमा बहुमतेन पारितीकृता वर्तन्ते। उपवेशे मुख्यमन्त्रिणा चेतनारायण आचार्येण आगामिनः आर्थिक वर्षस्य कृते प्रस्ताविताः नीति कार्यक्रमा प्रस्तुताः आसन्। प्रदेश सर्वकारेण प्रदेशस्य समग्र विकासाय कृष्युद्योग पर्यटन पूर्वाधार विकास प्रवृत्ति क्षेत्राणि प्राथमिकतायां संस्थाप्य नीति कार्यक्रमा प्रस्तुताः सन्ति।